संकेत रूप में दर्शन उसे उत्तम ग्रंथ करता हुआ वाचन करता हुआ वजन अंते सर्वय आहत्य मैं दुख से తథాస్తిచేతనుత్తమం ఉత్తమం కాదని ఎక్కడైతే సత్రసర్వృద్ధిన సహ విజాత ప్రధాన సయో ప్రధాన వాచ్యార్థం కించిత్ అనుసరతి చేత అలంకారః లింగార్థ ఏవ ప్రధానతయా తిష్టతి చేత వాచ్యార్థం కథం అనుసరతి తత్ ఉదాహరణం పునః
అత్యంద్రే అగ్రిమ
విషయ నమ ద్వేమి తత్పరాలేవ శబ్దార్థౌ యత్ర వీర్యం ప్రతిష్ఠితౌ యస్మిన్ కావ్యే ప్రయుక్తః శబ్దః అథవా ప్రయుక్తః అర్థః తౌ ద్వౌ ధ్వనిపరణౌ ఏవ సః తత్ర ధ్వని సహయుక్తః వాచ్యార్థ కశ్చన అస్తి నాస్తి ఇతి నాస్తి కిన్తు సః వాచ్యార్థ తదర్థం ఉపయుజ్యమానః శబ్దః శబ్దార్థ ద్వౌ ధ్వనిపరణౌ ఏవ సః ఉదాహరణ మిశ్రణం కిమర్థమిశేష అనుధ్వని కావ్యవిశేషయ అంగముఖ అంగీయ సహనీ అస్మాకం శరీరస్ అవయవా సంతి హస్త పాదనేత్రం కర్ణ నాటికారమణ ఇత్యాదీ సర్వాణి అంగాని సంతి అంగీకరణి ఆత్మా అహమస్మి ఆత్మా అంగీయతి ఏదాని సర్వాణి అంగాని సంతి అతని ధ్వని కావ్యవిశేష అంగీ ధ్వని కథిత అంగాని అలంకారా గుణా వృత్తయ ప్రతిపాదయిష్యే అగ్రే అహం ప్రతిపాదయిష్యామి తాదృశకావ్య ధ్వని అస్తి సహ అంగీ ఏ అలంకారా గుణా వృత్తయ సర్వే అంగభూతా అహం అగ్రే ప్రతిపాదయిష్యామి అవయవే అవయవ पुतद्भूतः अवयवैः प्रसिद्धः एकः अवयवः एव पुतद्भूतस्य अवयवैः प्रसिद्धः भवति वा न अवहासः विच्छिन्नः हासः केवलम् एकः प्राप्यते सः अन्धी अवयवी इति कथ्यते वा न अपृथग्भावेषु तरङ्गत्वं तस्य अपृथग्भावः न अङ्गेन सह वर्तते चेत् तस्य तरङ्गत्वं भवति पृथक् भवति चेत् तस्य अङ्गेन व्यवहारः न अपृथक् भवति चेत् तदापि तस्य अङ्गत्वेन व्यवहारः अस्ति एव न तु तत्त्वमेव तत्रापि वा तत्त्वं तत्रापि ध्वनेः महाविषयत्वात् न सन्धितत्वमेव ध्वनेः महाविषयत्वं सन्धितत्वं न ज्ञातम् एतत् वाक्यं मया न ज्ञातं दृष्ट्वा अग्रिमं पश्यामः श्वः कथयिष्यामि अग्रे पूर्वी कथितः इति विद्वदुपज्ञेयमस्ति न यथा कथञ्चित् प्रवृत्तेः प्रतिपाद्यते तत्र काव्यस्यात्मा उदैः यत्तमाम्नातपूर्वः सत्याभावं जलगुरपदे भक्तमाहस्तमन्ये तत्र नास्ति पूर्वी कथितः यत्रार्थशब्दो वा सम्पसज्जनीकृतस्वार्थौ यन्तः काव्यविशेषः सद्ध्वनिरिति पूर्यविस्तरितः इति पद्येते ध्वनिर्नामकः इत्येत् यत्र अर्थः शब्दः वा आत्मानम् उपसर्जनीकृत्य अन्यम् अर्थं यन्तः सः काव्यविशेषः ध्वनिः सद्ध्वनिः कथितः इति विद्वरूपज्ञः सूरिः कथिता इत्यस्य किल नियञ्चमुष्टिः विद्वरूपज्ञा उपज्ञा नाम प्रथमः उपक्रमः यस्याः इत्युक्ते ध्वनिः ध्वनिः इति कथनस्य उपक्रमं के कृतवन्तः इति चेत् एकेन सद्ध्वनिः गोरिः कथितः इत्यस्ति किल एवं ध्वनिः ध्वनिनां भाविविशेषः अस्ति इति कथनस्य आरम्भं के कृतवन्तः इति उच्यते चेत् विद्वान् कल्पितवन्तः विद्वद्भिः अस्य उपक्रमः कृतः अस्ति विद्वदुपज्ञा इयम् उत्तमः उक्तिः न यथा कथञ्चित् प्रवृत्ता इति प्रतिपाद्यते यथा कथञ्चित् लोके ध्वनिः प्रवादः उत्पन्नः नास्ति अग्रे प्रतिपाद्यते एकं प्रसिद्धं वाक्यं वदति प्रथमे विद्वांसो वैयाकरणाः एतस्य वाक्यस्य अधः अधोरेखं किमस्ति प्रसिद्धा उच्यते यद्यपि एतत् किं शास्त्रमस्ति अलङ्कारशास्त्रं साहित्यशास्त्रमस्ति साहित्यशास्त्रज्ञाः अल व्याकरणमेव बहु प्रधानमिति न मन्यन्ते इति न वदन्ति एते कथयन्ति विशिष्टेषः वदति प्रथमे विद्वांसः वैयाकरणाः व्याकरणाः नाम जीविकाः चेत् आदौ वर्णनीयाः ते विद्वांसः आरम्भकालिकः विद्वांसः ये चेत् प्रथमे विद्वांसः वैयाकरणाः व्याकरणमूलत्वात् सर्वविद्यानां किमर्थमिति चेत् सर्वाणामपि विद्यानां मूलं तु व्याकरणमेव यत्किमपि व्याकापि विद्या भवति सर्वासामपि विद्यानां मूलं तु व्याकरणमेव अतः प्रथमे विद्वांसः वैयाकरणाः तेन वैयाकरणाः श्रूयमाणेषु वर्णेषु ध्वनिः व्यवहरन्ति ते वर्णाः क्रियन्ते किल रामः किल तेषु वदनेषु ध्वनिः इति शब्दस्य प्रदेशं कुर्वन्ति सः किञ्चित् वदति चेत् सः किमपि उक्तवान् तस्य ध्वनिमहं शृणोमि प्रणामुच्चारयति भवतः ध्वनिं शृणोमि इत्यादि श्रूयमाणेषु वदनेषु ध्वनिः व्यवहारं कुर्वन्ति चेत सूयमाने वर्णयो ध्वनिर्वहन्ति तथैव अन्यैः तन्मतानुसारिभिः सूरिभिः तद्वदेव तेषां मतं ये अनुसरन्ति तैः तन्मतानुयायिभिः सूरिभिः काव्यतत्त्वदर्शिभिः वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यो व्यञ्जकत्वसाम्यात् वैयाकरणमार्गमेव अनुसरन्ति अन्ये ये सन्ति ते सर्वेपि एवं व्यवहारं कृतवन्तः ते यत्र यत्र शब्दाः श्रूयन्ते तत्र सर्वत्र ध्वनिः ध्वनिः इति व्यवहारं कृतवन्तः पुनरोच्चारणं यत्र श्रूयते तत्र ध्वनिः ध्वनिः इति कृतवन्तः एवं वाच्य वाच्यार्थः वाचकशब्दः इत्यादि उच्यते किल तत्रापि एते हिन्दी श्रूयते ध्वनिरेव श्रूयते किल अतः एते ध्वनिः शब्दस्य आरम्भं कृतवन्तः तदनुसृत्य अनन्तरं लिङ्गेजकत्वमित्रास्ति तत्रापि ध्वनिः ध्वनिः अन्ततो गत्वा मूलं कृत्वा पश्यामश्चेत् कुत्रापि व्याकरणम् अतः शब्दात्मा काव्यमिति व्यपदेश्य व्यञ्जकत्वसाम्या तत्रापि तस्य साम्यम् अस्ति इति कारणतः एतदपि एतदपि ध्वनिं चित्रं ध्वनिशब्दः एतदपि कलितः अग्रे न च एवं विधस्य ध्वनिः वक्ष्यमाणप्रभेदतद्भेदसङ्कलनेन महाविषयस्य यत्प्रकाशनं तद् अप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन तुल्यमिति तद्भान्तभेदकान् युक्तः एव सम्ब्रह्मः एवं विधस्य न च एवं विधस्य एवं विधस्य ध्वनिः वक्ष्यमाणप्रभेदतद्भेदसङ्कलनेन ध्वनिमध्ये कियन्तः भेदाः भवन्ति प्रभेदाः भवन्ति इत्यादिकं सर्वमहं वक्त्रे प्रणयिष्यामि अग्रे वक्ष्यमाणस्य इत्युक्ते इन्द्रियकृतखण्डः भेदभेदपूजितः अग्रे वक्ष्यमाणप्रभेदतद्भेदसङ्कलनेन तेषां भेदानां सर्वेषां सङ्कलनं कृत्वा महाविषयस्य प्रकाशनं मया महाविषयस्य प्रकाशनं तद् अप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन तुल्यं तद् अप्रसिद्धविशेषप्रतिपादनमित्रमस्ति तादृश अलङ्कारयुक्तः तुल्यं न ध्वनेः भेदप्रतिपादनं महाविषयत्वं सर्वमग्रे पूरणयिष्यते तद् अल्पविषयकसहित अलङ्कारेतैः तुल्यं न इति प्रचलितमस्ति तस्मात् कारणात् तुल्यन्ति एवमस्ति इति कारणतः ये अलङ्कारमेव चिन्तयन्तः सन्ति तेषां मनसि अस्माकं वचनं कृत्वा सम्रम्भः उद्भन्न उत्पन्नः भवति चेत् तत्र आश्चर्यविषयमपि नास्ति सम्रम्भः नास्ति नाम टेन्शन् कन्फ्यूषन् इत्यादिकं तेषां मनसि यत् भवति सम्रम्भः भवति तद् उक्तमेव इत्युक्ते किम् अभवत् ते अद्य पर्यन्तं यदेव प्रधानमिति उक्तवन्तः तद् न अस्माभिः अन्यदेव उच्यते एतस्य महान् विषयः अस्ति इति यदा उच्यते तदा तेषां तु सम्रम्भः भवति एव एतत् उच्यमेव न च तेषु कथञ्चित् वीर्यया करुषितक्षेमशीकत्वम् आविष्करणीयम् तथापि तेषां कृते अस्माभिः वीर्यया व्यवहारः कथमपि तेषां विषये कथञ्चित् ईर्ष्यया अभूयेत कलुषितक्षेमुषीकत्वं क्षेमुषीणां बुद्धिः क्षेमुषी बुद्धिः कलुषबुद्धित्वम् अस्माभिः नानिष्करणीयम् अतः तेषां विषये अस्माकं मनसि अन्यथा भावः उत्पन्नः भवेत् अथवा तेषामपि बुद्धिः नास्ति इति व्यवहारः अस्माभिः ते तावत् जानन्ति अतः ते तथा वदन्ति इति अस्माभिः सिद्धीकरणीयम् तदेव ध्वनेः अभाववादिनः प्रतिष्ठाः तदेवं तस्मादनेन प्रसारेण ध्वनि अभाववादिनः ये सन्ति ते सर्वेपि मया इदानीं प्रत्युक्ताः तेषां सर्वेषां वादानां निराकारः खण्डनं भवति अभाववादिनः ये सन्ति तेषां सर्वेपि वादाः अनेन प्रकारेण मया निराकृताः एवं उक्त्वा सः पूर्णतः दुर्भावमानं कृतवान्। अग्रे पुनः स्वस्य वाक्यं अस्ति ध्वनिः तत्र असौ अविवक्षितवाक्यः विवक्षितान्यपरवाक्यस्येति विविधः सामान्येन। तर्हि ध्वनेः विभागाः बहवः सन्ति इति पूर्वं कदाचित् उक्तवान् किल, कथम् इति चेत् यदि महान् विभागः इदानीं तु आरम्भे सामान्येन ध्वनिः चिन्तयति। असौ अविवक्षितवाक्यः विवक्षितान्यपरवाक्यस्येति सामान्येन द्विधः। ध्वनिः इति कथं लिखन्ति चेत् तस्य भागद्वयं भवति, एकः अविवक्षितवाक्यस्य अन्यः भवति विवक्षितान्यपरवाक्यस्य। उदाहरणं यदा वदामः तदा अविवक्षितवाक्यस्य वाक्यार्थः कश्चन भवति न भवति इति, किन्तु सः अर्थः अविवक्षितः व्यर्थनाम का वक्तुः इच्छा विवक्षः काव्यविषयः किल, कश्चन कर्ता काव्यः लिखति अथवा काव्यः वक्ति वदति, तस्य मनसि या अपेक्षा अस्ति सा वक्तुः इच्छा विवक्षः, सा अविवक्षिता भवति। वाक्यार्थः कश्चन अस्ति किन्तु सः तद् वक्तुं न इष्टवान् एव इत्यस्ति चेत् अविवक्षितवाक्यं भवति। प्रथमं द्वितीयं विवक्षितान्यपरवाक्यः इत्युक्ते वाक्यार्थः यास्ति कोऽपि विवक्षितः अस्ति समर्थं सः वक्तुम् इच्छति, किन्तु सः अर्थः अन्यपरः अस्ति विवक्षित अन्यपरः, तत्कथम् इति उदाहरणे स्पष्टं भवति। तर्हि प्रथमोदाहरणे वाच्यार्थः यास्ति सः न विवक्षितः, द्वितीयोदाहरणे सः विवक्षितः अस्ति विवक्षितोऽपि अन्यपरः अस्ति एवं भवति। तत्र आद्यस्य नाम अविवक्षितवाक्यस्य उदाहरणं सुवर्णपुष्पां पृथिवीपुरुषाश्रयः
कृतविद्यश्चेतुं
लोके त्रयः पुरुषाः पृथिवीं शृण्वन्ति। शृण्वन्ति नाम किं शिवसञ्चयने चयनं कुर्वन्ति, इदानीं कस्य कस्य पुष्पाणि सन्ति कर्तुं शक्ये पुष्पेभ्यः पुष्पं लताभ्यः पुष्पाणि सञ्चिनोति सङ्ग्रहणं करोति इत्यतः त्रयः पुरुषाः भवति पृथिवीं चिन्वन्ति। तत्र चिनोति शब्दः द्विकर्मकः अस्ति, गोब्धी क्रियापदमस्ति, गोपालकः दुग्धं क्षीरं गोब्धी कुतः इति चेत् देवं धेनुं गोब्धी क्षीरं गोब्धी द्विकर्मकः तदेव कथं गोपालकः
धेनुं क्षीरं गोब्धी
गोपालकः धेनुं क्षीरं गोब्धी चिनोति अपि तथैव पृथिवी सुवर्णं चिनोति। सूरः पृथिवीं सुवर्णं चिनोति, तदेव अत्र पृथिव्याः विशेषणं दत्वा पृथिवीं सुवर्णपुष्पां चिनोति। कीदृशीपुत्री पृथिवी भवति इति चेत् सुवर्णमेव पुष्परूपेण यत्र अस्ति तादृशीं पृथिवीं चिनोति, इत्युक्ते पृथिवीतः कः यथा लतायाः पुष्पाणि सञ्चिनोति कश्चन जनः तथा भूम्याः सकाशात् सुवर्णानि एव सः पुनः पुनः सञ्चिनोति। तात्पर्यं मध्ये भूधनसङ्ग्रहणं यः कर्तुं शक्नोति के इति चेत् त्रयः जनाः सुवर्णपुष्पां पृथिवीं चिन्वन्ति त्रयः पुरुषाः के इति चेत् अद्य बहवः तादृशकार्यं कृत्वा एव बहु सम्पादनं कुर्वन्ति. नेतारः एव भवन्ति, राजकीय नेतारः एतां सेवनं कुर्वन्ति, तस्मात् बहु सम्पादनं. अतः एवं शूरः कृतविद्यः सेवितुं यः जानाति सः एते त्रयः किं कुर्वन्ति इति चेत् रुचिः सुवर्णपुष्पां चिन्वन्ति. अत्र सुवर्णपुष्पचयनम् इति अर्थः अस्ति. सुवर्णपुष्पचयनम् इति यः वाच्यार्थः अस्ति सः अर्थः विवक्षितः नास्ति. विवक्षितः नास्ति नाम कः अर्थः? न निध्यते एव सः. किं वयं भूमिकः सुवर्णपुष्पम् एवं स्वीकर्तुं शक्नुमः वा? भूमिकः एव सस्यस्य तु उत्पादनं भवितुमर्हति. सुवर्णरूपस्य सस्यस्य उत्पादनं भवति, तत्र सुवर्णमयानि पुष्पाणि भवन्ति. सः वाच्यार्थः किल, सः विवक्षितः नास्ति. तात्पर्यार्थः कः इति चेत् सः बहुधनं सम्पादयितुं शक्नोति इति तात्पर्यम्. अतः वाच्यार्थः यः अस्ति साक्षात् सुवर्णमयानां पुष्पाणां चयनम् इति यः वाच्यार्थः अस्ति सः विवक्षितः नास्ति. अविवक्षितवाच्यः ध्वनिः अविवक्षितवाच्यः नाम कारयति. विवक्षितः कश्चन अर्थः नास्ति एव, किन्तु सः अर्थः अभिप्रेयः नास्ति. तात्पर्यमन्यकरोति बहूनि वर्णस्य चयनं नाम अधिकधनसम्पादनम् इति अर्थः अङ्गीकुर्मः. किन्तु एतैकस्य सुवर्णमयस्य पुष्पस्य सङ्ग्रहणम् इति यः वाच्यार्थः अस्ति सः विवक्षितः. अतः अविवक्षितवाक्यः एव यत्र अस्ति स अविवक्षितवाक्यं शक्यते. प्रथमः यः अर्थः अस्ति सः सर्वथा एतेन उपेक्षितः एव, तस्य प्राधान्यं नास्ति एव, सम्बन्धो नास्ति. द्वितीये तस्यापि कश्चन सम्बन्धः अस्ति, तद् द्वितीयम् उदाहरणमस्ति. पश्यामि तर्हि द्वितीयम् उदाहरणमस्ति. द्वितीयस्य नाम विवक्षितान्यपरवाच्यस्य उदाहरणम् सम्यक् अवगच्छन्तु. अविवक्षितवाच्यस्य वाच्यार्थः यः अस्ति सः तत्र विवक्षितः एव नास्ति. विवक्षितान्यपरवाच्यः नाम विवक्षितः अस्ति वाच्यार्थः, किन्तु सः अन्यपरः
अनुव्यपरम्
कश्चन नायकः कश्चन अस्ति, एकः सुखशावकः सुखपोतः सुखशिशुः अस्ति, सः गुरुशिशुः सुखशावकः. बिम्बफलं गच्छति, बिम्बफलं 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 सः आगच्छति. तदा एषः नायकः कथं कथयन् अस्ति काञ्चित् तरुणि नायिकामहोदय तस्य एतत् वचनमस्ति. पश्यतु एषः शुकः बिम्बफलं खादन् अस्ति, बिम्बफलं दशमस्ति, एषः शुकशावकः. एतादृशं बिम्बफलं खादितुं सः बहु पुण्यवान् स्यात्. कीदृशं पुण्यं सः प्राप्तवान् स्यात्, किं कृतवान् स्यात् इति चेत् कुरु नाम शिखरिणी, शिखरिणी पर्वतः, शिखरम् अस्ति अस्ति शिखरी, शिखरं नाम अग्रभागः पर्वताग्रभागः शिखरम् इति वर्तते. शिखराग्रं यदि अस्ति सः शिखरी नाम पर्वतः. कुरु नाम शिखरिणी कस्मिन् मा पर्वते तपः कृतवान् स्यात् इत्युक्ते මහදී සිද්ධි ප්‍රාප්ත වියා කියන විශේෂයෙන් තාන්නේක තපස කරන්නේ කියන එක ප්‍රමුඛතාවයේ තියෙනවා. සහ රාමාවේ සහ තපහාදී වෝකරණ ක්ෂේත්‍රම් ගතවාන් හිමාලයෙන් ගතවාන් කොළොඹගෙන ඉතිරි වාදී මුත්‍රි කියන ගුණයේ තේරීමේක තපස කරන්නේ අධික බලම් සිද්ධි. අතහ සාධකයේ ස්ථාන ඉකමින් සිටරේ කොළොඹා ඉකමින් ප්‍රතිමා වස්තේ තපස්සමාන් කිම අධිහානං තප අතෝ වතරෝ කිම අධිහානං සීනාමං තපස්සමාන් තපස්සමෝති නාමං භවති සංඝං තපරාය දාර්ශනික පහයිතෝ නාම භවති කිම අධිහානං නම් කිම නාමං තපස්සමාන් කිම ඵලං ප්‍රාප්තවාන් කීයේද නීනං සහ බිම්බ ඵලං දසති ඊඛං බිම්බ තව අතර පාඩලම් අතරව පාඩලම් තව අතරත් යහ පාඩල වල නැති සාධක පාඩල වල නිත්තම් දීව බලන් සාධන ඉතුතේ ඉදානි වාක්‍ය සහ කහති තව අතර වර්ණහල සාධක රත්වරණ සහිතව බිම්බ ඵලක්ෂ ආදානස්ති සත්‍යින පරවදී උපදිශ්‍ය නිදර්ශන තපස් කරගෙන යන සවා සිද්ධාර්ථය ඒකම වාක්‍යය නිර්යාතවෝදී තව අදර සදෘශ්‍ය බිම්බ ඵලක්ෂ දතරාත්මේව විතාල කුමිනී කටි සත්‍යව දර්ශන කරගෙන කිසිතෝ විදියේ කියන්නේ කියන්නේ පුනහ සතිය පරවදී සීලසම් සපහාදිනේ වේ කිසි විද්‍යාර්ථයේ සහයයක් නැතවා එනි නයිකම් විශේෂතාවක නැහැ. තව අතරස්සේ යහ රත්වරණාදී සත්තරසත්‍ය බිම්බපරත්‍ය ඛාදනාර්ථම් සත්තරසත්‍ය බිම්බපරත්‍ය ඛාදනාර්ථම් මේ කර්මයේ තපති සතියේ සීල පරමතේ උපවිෂ තපහ කරගන්නීම තරිහි තව අධර්ශීව දැනෙන කරගන්නේ දෝ විදියට තපස් කරගන්නේ කි තපස් කරන්නේ සම්විය තරි ප්‍රථම ආයතනයි ඉතුතේ තව අධර පාඨලම් ජීව බලම් ජොම්තු සත්‍යං සිට පරමතේ කිම නාමකම් තපස් කරගන්නේ වදේ කි වාක්‍යාර්ථහතර සර්වථා අවිරචිතයි කිනා සහ අර්ථෝ අවශ්‍යකේවා ඒකතර්ථම් ඒතාව පුතෙන් සම්පාදනයේ සදර්ථම් පුනහ කිය කරමින් වේ. අත වාක්‍යාර්ථෝ යතර අවශ්‍යකේව වාක්‍යාර්ථහ අර්ථි සහ වාක්‍යාර්ථෝ විවක්ෂිතේව කිංතු සහ අන්‍ය වරකහ ඉතුතේ ධර්ණ්‍යත අන්‍යයහ අර්ථකි සමර්ථමෝ පුෂ්‍ය තව අධරක්ෂ්‍ය වර්ණ අදෘශ්‍ය පාටල විදති පාටලතු සාධෘජ වර්ණයුක්තම් බිම්බ බලං කාමිති මේව ඉතාවතුන්නේ පුනා හේත නිදන්නේ කුසින් කරේ තත් පරකමේව ඒවම් විවක්ෂිතාන්‍ය පර වාච්‍යස්කම සත්‍ය කේතිය සතහන විනිශ්චය මුක්වා ප්‍රථම භාග ජනිතවා අවිරක්ෂිත වාක්‍යදී විවක්ෂිතාන්‍ය පර වාච්‍යස්කම ප්‍රථමම් කින් කෘතවාන් ධ්වනිභාවවාදස්ය නිවාරණම් කෘතවාන්. නිවාරණම් කෘත්වා අච්චි ධ්වනිම් ප්‍රතිපාදිතවාන්. සහ නාමයෙන් ජීවහායි ධ්වනි ප්‍රතිපදිතවාන්. ධ්වනි ප්‍රතිපන්නානම් වාදා සන්ති කියලා. අභාවවාදහ භක්තිවාදහ අනේව ප්‍රතිපාදනය. તો દ્વિતીય વાદા હતા કે ભક્તિ વાદા કે સંવાદ નિયમિત યદં ઉત્તમ ભક્તિ ધનેતિ તત પ્રતિ સમાજ્યતે તતમા યદં ઉત્તમ અગે કી ઉત્તમ કે જેદ ભક્તિ ધનેતિ કિતિ અગે કેના ધની નસ્તી જ નહી કુમાર કિંતુ તત્ર ગ గౌణం అప్రధానం భక్తి భక్తమాహుత్తమన్యే భక్తి తత్ప్రతి సమాధీయతే తరుద్దిశ్య సమాధానం ఇదానీ వాచ్యవాచకాభ్యాం తాత్పర్యేణ ప్రకాశనం ఎత్ర వేద ప్రాధాన్యే సహ వాచ్యవాచకాభ్యాం అసలేన ప్రకాశం వాచ్య వాచక ఇత్యాదీనం అసలే ప్రకాశం ఎత్ర వ్యంగ్య ప్రాధాన్యం వ్యంగ్యార్థస్య ప్రాధాన్యం సహ ధ్వని అస్మాకం ఉపచార మాత్రం ధ్వని నాస్తి భక్తి నామ ఉపచార మాత్రం ఉపచార గౌణత్వ మాత్రం ఇది సరే ఉపచారహ ప్రశ్న అగ్రే ఉదాహరణ భక్తిలక్షణం భక్తిలక్షణం ఏదస్తి తద్ధ్వని కిమర్థమితి చేత అతివ్యాప్తే అథ అవ్యాప్తే తత్ర కిమపి కస్యచిత్ లక్షణం వక్తవ్యం చేత తద్ దోషత్రయ విరహితం భవేత్ ఇతి వదతి అతివ్యాప్తి అవ్యాప్తి అహం భవతి విషయ దోష న భవేత్ తథా అస్తి చేదేవ తద్ లక్షణం అతీవ ప్రామాణికం భవితుం అర్హతి ఉత్తమం లక్షణం ఇది కథ్యతే ఏం కర్తం కుత్రచిత్ అతివ్యాప్తి భవతి కుత్రచిత్ అవ్యాప్తి అతివ్యాప్తే అథ అవ్యాప్తే అతివ్యాప్తి కారణా అథవా అవ్యాప్తి కారణాత్ భక్త్యా అసౌ న లక్ష్యతే భక్త్యా ధ్వనిః లక్షిత భవితుం నార్హతి భక్తిలక్షణేన ధ్వని వయం వక్తుం ఏ నహి కిమర్థమిది చేత్ కుత్రచిత్ అతివ్యాప్తి భవతి కుత్రచిత్ అవ్యాప్తి
యాని ఉదాహరణాన్ని వదామ తద్విహాయ అన్యత్రా ఏదద్ లక్షణం సంలక్ష్యతే చేత అతివ్యాప్తి అతివ్యాప్తి నామ వయం ఏ లక్షణం వదామ
तस्य लक्ष्य भूताः ये सन्ति तान् विहाय अन्यत्रापि यदि गच्छन्ति ते अति व्याप्ति इदानीं तदेव अतिव्याप्तिः ध्वनिरहितेऽपि स्थाने ध्वनिः यत्र नास्ति तादृशे स्थाने भक्तिः ध्वनिः वर्तते ध्वनिः नास्ति चेत् भक्तिः तादृशमपि ध्वनिः वर्तते यत्र हि व्यङ्गजनं महत्सौष्ठवं नास्ति तत्रापि उपचेतशब्दमस्या प्रतिजनोनप्रवर्तितव्यवहाराः कवयः दृश्यन्ते यथा कृते भक्तिः भवति इत्यस्ति किल ध्वनिः नास्ति किन्तु भक्तिः अस्ति तादृशस्य उदाहरणं भवति यत्र हि व्यङ्ग्यकृतं महत्सौष्ठवं नास्ति व्यङ्ग्यकारणतः महान् चमत्कारः यत्र न दृश्यते यादृशं व्यङ्ग्यकृतं महत्सौष्ठवं नास्ति यत्रापि उपचरितशब्दरूप्या प्रतिजनोरप्रवर्तितव्यवहाराः कवयः दृश्यन्ते केवलम् उपचारमात्रेण उपचारः इत्युक्ते अस्य शब्दस्य अयमर्थः इति यदस्ति सः अर्थः न सञ्जस्यते किञ्चित् भिन्नः अर्थः भवति तद् उदाहरणं यदा वदामि तदा स्पष्टं भवति तत्र कवयः तादृशप्रयोगं कुर्वन्ति तत्र वाक्यार्थः यान्ति सः वाक्यार्थः न सञ्जस्यते अन्यम् अर्थं वयं स्वीकुर्मः तत्र किन्तु ध्वनिः नास्ति तादृश उदाहरणानि तादृशाः कवयः एवं प्रयोगं कुर्वाणाः कवयः दृश्यन्ते यथा उदाहरणे
परिमुलानन्दीनस्तनजनसङ्घादुभयतः
तमोर्मत्स्यान्तः परिमिलनमप्राप्य हरितम् यत्सन्यासं सतभुजलताक्षेपवननम्
इदं यत्सन्यासं प्रकृतिलभुजाक्षेपवदने
शान्त्यासन्तापं वदतिशयनम्
शान्त्यासन्तापं वदतिशयनम्
कश्चन नायकः नायिकामन्दिरं गच्छति तत्र उद्यानम् इति मन्ये उद्यानं तत्र कुत्रापि तत्र गच्छति प्रसन्नं न जानामि सम्यक् न जानामि उद्यानं हा अर्थं नागतवान् नाटके अन्तःपुरे वा तत्र वा न जानामि सम्यक् सा विरहक्रीडाम् अनुभवन्ति आसीत् यदा विरहक्रीडा अनुभूयते तदा किं क्रियते इति चेत् शीतलं यस्मात् ज्ञायते तादृशानां वस्त्राणां वस्तूनां सर्वेषाम् उपयोगः क्रियते सा इदानीं विरहाभिनीं सोढुं न शक्ता सा दिशिनी वस्त्रशयनं जनितवती शयनार्थं कीर्ति शय्या आसीत् इति चेत् कमलिनी वस्त्राणि दिशिनी वस्त्राणि कमलदलैरनुकूलं शयनं तादृशं कृत्वा शयनं कृतवती आसीत् दिशिनी वस्त्रशयनं दिशिनी वस्त्रे सा शय्यां विरचय्या तत्र शयनं कृतवती आसीत् सद्यः कृत्वा कृतवती आसीत् नाम
कमलं
दिशं नाम कमलनाम दिशम् इति नाम विधिनी नाम कमलिनी चक्रं कमलिनी पत्रचयनं तत्र आहत्य इत्युक्ते प्रत्येकं शब्दस्य वक्तव्यं न चेत् किम् इत्युक्ते कुत्रापि शयनं कुर्मः चेत् तत्र एकत्र एवं शयनं कृतं भवति भूमिः अस्ति भूमिः भवति इति चिन्तयति बालाः भूमिमध्ये पतित्वा उत्तिष्ठन्ति चेत् किञ्चित् दुःखं कृत्वा उत्तिष्ठन्ति चेत् तत्र मृत्तिका सर्वा इतस्ततः जाता भवति एवमेव महती शय्या अस्ति इति चेत् इदानीं भवति किल उन्नतैतावद्दण्ड किं शयनानि भवति किल तादृशानि तादृशं महती शय्या व्यर्थिता आसीत् इति तत्र शयनं तत्र एषा एतावत्पर्यन्तं शयनं कृतवती आसीत् तत्र किमस्ति तस्य केचन भागाः शरीरस्य भिन्नभिन्न अङ्गानां स्पर्शात् कुत्रचित् न्यूनताः सन्ति कुत्रचित् नताः सन्ति एवं तस्य दिशिनीपत्रस्य शयनं यदस्ति तस्य सर्वेपि भागाः इदानीं किमस्ति कुत्रचित् पर्णानि हरितानि एव सन्ति इत्युक्ते केषुचित् भागेषु अङ्गानां स्पर्शः सम्यक् न भवेत्
कुत्रचित् अङ्गानाम् अधिकः स्पर्शः भवति. तस्मात् कारणात् विधिपत्रशयनस्य केचन भागाः अतीव लुलिताः सन्ति, अतीव म्लानाः सन्ति. मलनं प्राप्य इत्यस्ति, मलनं नाम स्पर्शः इत्यत्र मलनं प्राप्य उद्घटनं सर्वं प्राप्य एवं शय्यायाः परिस्थितिः इदानीमेव जातमस्ति. कथं तत्सर्वं दृष्ट्वा सः अन्तिमं वाक्यं वदति. तत्र प्रथमचित्रिष्टुपङ्क्तिः तदेव उक्तमस्ति, भिन्नभिन्नभागानां स्पष्टवशात् एवं जातमस्ति. तस्मात् अन्तिमपङ्क्तौ वदति, विधिपत्रशयनं यदस्ति एतत् कृशाङ्गुल्याः सन्तापं वदति. विधिपत्रशयनं यदस्ति एतदेव शयनम्, अत्र या कृशाङ्गी शयनं कृत्वा ददति सा अतीव सन्तापम् अनुभूतवती इति वदति. विधिपत्रशयनं शयनं नाम शय्याय विधिपत्रशयनं कृशाङ्गिया सन्तापं वदति. वदति वक्ता कः? विधिपत्रशयन विधिपत्रशयनस्य जीवा सन्ति वा? हा, तर्हि वक्तुं शक्नोति वा? तर्हि विधिपत्रशयनं वदति इत्युक्ते कः अर्थः? वदति इति पश्चात्तः चेत् सः सूचयति इति तात्पर्यमात्रं नास्ति, वक्तुं तत्र मुखं नास्ति. अतः वदति इति अत्र प्रयोगः कृतः अस्ति किल, अयम् उपचारः इत्युक्ते प्रयुक्तः शब्दः अन्यमपि अर्थं दद्य उपचाररूपे इत्युक्ते प्रसङ्गवशात् सः अन्यम् अर्थं ददाति, तावता अत्र ध्वनिरस्ति इति वक्तुं न शक्यते. द्वितीयपत्रशयनं कृशाङ्गुल्याः सन्तापं वदति इति एवमेव अन्यत् उदाहरणं विद्यते. शतकृत्वो वर्ध्यते शुल्यते शतकृत्वः इत्युक्ते अस्तु नाम सहस्रकृत्वः शून्यते. अन्यस्मस्ति अस्तु नाम आहत्य तात्पर्ये तावत् समानः तत्र
शुञ्जते शतकृत्वो
अवरुध्यते सहस्रकृत्वा पुनरारभ्य पुनारभ्यते
विरम्य पुनारम्यते
प्रियोजनो नास्ति पुनरुक्तम्
प्रियोजनो नास्ति पुनरुक्तम्
अत्र
तदेव किमस्ति प्राकृतकार्यमस्ति तस्य अनुवादस्य किञ्चित् भेदः भवति. एवमेव संस्कृतकार्यादि कर्तुं न शक्यते, पाठान्तरं लभ्यते, तस्य आधारेण अन्यः करोति, तात्पर्यं समानं भवितुम् अर्हति. इदानीमत्र प्रेयति वेदनयोः मेलनस्य वर्णनं प्रयत्न क्रियते. अत्र तु किमुच्यते इति चेत् शतकृत्वः अवरुध्यते. अत्र अवरुध्यते नाम आयुज्यते इति अर्थः. शतकृत्वः तत्र कृत्वः नाम वारम् इति वयं वदामः, एकवारं द्विवारं त्रिवारम् इति वदामः. कृत्वः इत्येकम् अवधेयम्, एककृत्वः द्विकृत्वः त्रिकृत्वः पञ्चकृत्वः नाम पञ्चवारम् इत्यर्थः. कृत्वा इत्यस्य अर्थ कोऽपि सम्बन्धः नास्ति, कार्यं कृत्वा इत्यस्य अर्थ च सम्बन्धः नास्ति. कृत्वः नाम वारम् इत्यर्थः अतः शतकृत्वः अवरुध्यते, शतवारम् आयुञ्जनं क्रियते. सहस्रकृत्वा शुञ्जते, सहस्रवारं चुम्बनं क्रियते इति सर्वम् उक्त्वा अनन्तरं वदति विरम्य पुनरारभ्यते. पुनरारम्यते, रमणं कृत्वा पुनः रमणं क्रियते. किमपि कृते पुनः पुनः सुखम् अनुभूयते इति वा? अन्तिमां पङ्क्तिं वदति प्रियोजनो नास्ति पुनरुक्तम्. स्वप्रियः जनः एवं करोति, सर्वं कृत्वा अनन्तरम् अत्र पुनरुक्तं नास्ति. पुनरुक्तं नाम काव्येषु पुनरुक्तिः एकः दोषः भवति, एकमेव अंशम् उक्तमेव पुनः पुनः वदति चेत् सः एकः दोषः. एकं विषयं वदति रामारण्यम् अगच्छत् इति वदति न, तदर्थं राटवीं कृतवान् इति पुनः वाक्यं वदति. पुनः रामः स जानाति इति कृत्वा उक्तमेव पुनः पुनः वदन् भवति चेत् सः एकः दोषः पुनरुक्तिः इति दोषः इति गच्छति. किन्तु अत्र तु पुनरुक्तम् इति दोषः न दोषाय, अतः नास्ति पुनरुक्तम् इति. पुनरुक्तं नाम किमिति वदन्तु, रामहरणं भगवान् इत्यादि उक्तमेव पुनः पुनः वदति. पुनरुक्तं नाम उक्तस्य पुनरुच्चारणं पुनरुक्तम् इति अत्र एकवारम् आलिङ्गितं, पुनः आलिङ्गितम् इत्युक्ते पुनः उक्तम् इति न, उक्तं नाम वचनव्यापारः. अत्र उक्तं पुनरुक्तं नाम पुनरावर्तनम् इति तात्पर्यम् आचर्यते. कृतस्यैव कार्यस्य पुनश्चरणम् इति तात्पर्यम्, किन्तु पुनरुक्तम् इति शब्दः प्रयुक्तः. अतः पुनरुक्तशब्दस्य उपचाररूपेण कृतस्य आवर्तनम् इति अन्यनार्थः. एवं यत्र व्यवहारः अस्ति तत्र उपचारः इत्युक्ते एकः उदाहरणं यथा भार्यायाः प्रहारो नवलतया कुपिताः प्रसन्नाः अवरुदितवदनाः इह सन्त्यः यथा गृहीताः तथा हृदयं हरन्ति स्वैरिण्यो महिलाः. स्वैरिण्यः महिलाः याः सन्ति ताः हृदयं हरन्ति, पुरुषाणां हृदयम् अपहरन्ति. कथम् इति चेत् कुपिताः कुपिताः एवमपि, अनन्तरं प्रसन्नाः प्रसन्नाः चेदपि, अवरोहितवदनाः यः सन्ति चेदपि, यः सन्त्यः सन्ति चेदपि, यथा गृहीताः यथा गृह्णीमः तथा इत्युक्ते यथा पश्यामः तथा ताः, यथा गृह्णीमः तथा स्वैरीयमिताः हृदये हरन्ति. अत्रापि इत्युक्ते यस्यां कस्यामपि अवस्थायां भवन्तु नाम ताः पुरुषाणां हृदयं हरन्ति. हरणं नाम किं? चोराधनं हरति इत्युक्ते एवं धनं गृहीत्वा गच्छति इत्यर्थः. अत्र हृदयं हरन्ति इत्युक्ते हृदयं यदि उत्पाद्य हरन्ति इत्यर्थः वा? हरन्ति नाम किम्? अपहरन्ति, अपहरन्ति इत्युक्ते आकर्षन्ति इति तस्य उदाहरणं. नाम स्वस्य यथा यथा अस्ति तथा व्यवहरति, अपेक्षया व्यवहरति तस्मै एषा मृदुकेऽपि मृदुकोऽपि दुःखः एव जातः हृदये सपत्नीना. कश्चन नायकः अस्ति, तस्य अनेकाः पत्न्यः सन्ति. तर्हि नूतनायकः नूतना पत्नी अनेका अस्ति, कनिष्ठा पत्नी तेन इदानीम् अनेका अस्ति. सः कदाचित् किं कृतवान्? स एकं नवलतां गृहीत्वा, लतां गृहीत्वा तस्याः वक्षस्थले एकं ताडितवान्. तनपृष्ठे सः किं कृतवान्? ताडितवान्, प्रहारं दत्तवान्. लघुप्रहारः तेन दत्तः नायिकायाः कनिष्ठपत्न्याः तनपृष्ठे सः लघुप्रहारं दत्तवान्. किन्तु सः प्रहारः महती पीडामजने कुत्र इति चेत् अन्यासां सर्वदा एकाशं को सः प्रत्याकरो एतादृशं सर्वदा कोपः भवतः. अतः तासां सर्वदापि बहुमुखी चेत् दुःखः दुःखः सन्ति अत्र अत्र कुत्र दुःखः उपजातः प्रहारः कथं सङ्गच्छते? कारणं तु अत्र कृतं प्रहारः अनया प्राप्ता वेदना कारणीभूता इति चेत् तात्पर्यम्
ఈర్ష్యా ఉత్పన్న పూజా ఉత్పన్న ఇత్యాది ద్వితీయ ఏం అత్ర పరాయీరానుభవతి
ృద్ధిమక్షేత్రపతి
పరాభవతి చంద్రశాలయాశ్వరం కృత్వా ददाति పశ్యంతి చేత సహ ఇక్షు పరాప్తే క్రీడా అన్య సమీపం మధురం రసం పిబదు ఇక్షో కిం కరోతి క్రీడానుభవతి ఇక్షు యంత్రే స్థాపయ బ్రాహ్మణి కిల ఇక్షో మహతీ క్రీడా పరాప్తే యనుభవతి భంగే మధురా తస్య అంగభంగాదికం సర్వం కరోతి కిల సహ భంగే సహ మధుర ఇక్షోహారుడో శర్కరాతు అన్యచ్చిందీకృతం క్షిప్తవాన్ ఉద్ధిం న ప్రాప్తవాన్ అక్షేత్రపతి సమీచీనే క్షేత్రే నిపతిత ఇక్షుదండోషిత అనుభవతి అగ్రే తదేవ
उच्यन्तरेण
वदतु उच्यन्तरेण अशक्यं यत्तत्कारुत्वं प्रकारेण शब्दव्यञ्जकतां भुञ्जुक्ते सर्वे
भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्।